एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण सम्प्रत्येव रसुवा जनपदे दुरापन्ने भूस्खलने निपत्य मृतकानां परिवारेभ्य प्रतिपरिवारं लक्षद्वय रूप्यकात्मकं सहयोगं प्रदातुं आहतानां जनानाम् उपचारस्य व्यवस्थां विधातुं च निर्णीतम् अस्ति। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन रसुवा जनपदे दुरापन्नेन भूस्खलनेन जल विप्लवेन च विहिताम् क्षतिम् विज्ञापयितुम् ह्य आयोजिते पत्रकार सम्मेलने प्राधिकरणस्य कार्यकारी प्रमुख दिनेश भट्ट जल विप्लवे भूस्खलने च निपत्य मृतकानां परिवारेभ्य प्रतिपरिवारं लक्षद्वय रूप्यकात्मकं सहयोगं प्रदातुम् आहतानां जनानां स्वास्थ्य मन्त्रालयस्य माध्यमेन उपचारस्य व्यवस्थां कर्तुम् च विपद कार्यकारी परिषद उपवेशेन निर्णीतमस्तीति असूचयत। गत मंगलवासरे उपविष्टेन विपद कार्यकारी परिषद उपवेशेन नेपाल चीन देशयो योजकस्य मितेरी सेतोः पुनर्निर्माणाय संचालनाय च चीन सर्वकारम् अनुरोद्धुम् क्षतिग्रस्तानाम् अन्येषाम् पूर्वाधाराणाम् सम्बद्ध मन्त्रालयेन पुनर्निर्माणस्य कार्यम् तत्कालमेव अग्रेसारयितुम् च निर्णीतम् अस्तीति असौ असूचयत। कार्यकारी प्रमुख भट्ट भूस्खलनस्य कारणं परिचेतुं विस्तृतम् अध्ययनं विधातुं आगामिषु दिनेषु सम्भावित विपदः यथासमयं पूर्वसूचनां प्रदातुं च चीनदेशेन सह आवश्यक समन्वय विधास्यते इति असूचयत। पत्रकार सम्मेलने रसुवा जनपदस्य भूस्खलनेन नवजनाः मृताः ऊनविंशतिर्जनाः विलुप्ताः एको जनः अतश्च वर्तते इति ज्ञापितम् आसीत्। अस्यैव आषाढस्य चतुर्विंशे दिवसे प्रातःकाले रसुवा जनपदस्य ल्हेन्दे केरुङ नद्योः जलप्लवः अधिकां वृष्टिं विनैव हिमरदस्य विस्फोटनेन सम्भूतो स्थिति प्रारम्भिकम् अनुमानम् वर्तते। गृहमन्त्रिणा रमेश लेखकेन अस्यैव आषाढस्य चतुर्विंशे दिवसे रसुवा जनपदस्य नेपाल चीन देशयोः सीमवर्तिनी क्षेत्रेण प्रवहमाणायां लेन्दे नद्याम् दुरापन्नस्य जल विप्लवस्य कारणेन जाताया मानवीय क्षतेः भौतिक क्षतेश्च विषये ह्य प्रतिनिधिसभायाम् विज्ञापितम् वर्तते। उपवेशे विभिन्न समयेषु उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः जल विप्लवस्य कारणेन रसुवा जनपदस्य गोसाईकुण्ड ग्रामपालिकायाः द्वितीय वडा क्षेत्रे विपुल क्षतिः प्राप्तास्ति, अधुनावधि एकोनविंशतिः जना विलुप्ताः सन्तीति च असूचयत। गृहमन्त्री लेखकः अधुनावधि नेपाली सेनाया हेलिकप्टरयानेन 30 जना उद्धृताः सन्ति, उद्धार कार्यम् नैरन्तर्येण सञ्चलत् अस्तीति च अज्ञापयत्। मन्त्री लेखकः विलुप्तानां जनानाम् अन्वेषण कार्याय सम्प्रति नेपाली सेनायाः नेपाल प्रहरिणश्च चेति कृत्वा समग्रतः 2,67 सुरक्षाकर्मिणः परिचालिताः सन्तीति अज्ञापयत्। गृहमन्त्री लेखक रसुवागढी विद्युत उत्पादन केन्द्रे क्षतिः प्राप्तास्ति, त्रिशूली 3D उत्पादन केन्द्रम् प्रवाहितमस्ति, संयुक्त शुष्क वाणिज्य केन्द्र कार्यालयस्य प्रायो भागाः प्रवाहिताः वर्तन्ते, तत्र स्थितानि यानानि अपि प्रवाहितानि वर्तन्ते, अन्य क्षतेः विवरणस्य संकलन विधीयमानम् अस्तीति च असूचयत। प्रतिनिधिसभाया ह्यस्तने उपवेशे सांसदानां प्रश्नान् उत्तरयन् कृषिमन्त्री रामनाथ अधिकारी सर्वकारेण अनुदानस्य मल वितरण व्यवस्थापन निर्देशिकायाम् वर्तमानायाः व्यवस्थायाः अनुसारेण मल वितरणस्य कार्यम् विधीयमानम् अस्तीति व्यज्ञापयत्। प्रतिनिधिसभाया ह्यस्तनोपवेशेन सांविधानिक परिषदः कार्यकर्तव्याधिकार कार्यविधि सम्बद्धम् प्रथम संशोधन विधेयकम् राष्ट्रियसभायाः वितेन संशोधनेन सहितम् बहुमतेन स्वीकृतम् वर्तते। उपवेशे महिला बालबालिका ज्येष्ठ नागरिक मन्त्रिणा नवल किशोर शाह सुडी इत्यनेन बालबालिका सम्बद्धम् एतद् विक्रमवर्षीयम् प्रथम संशोधन विधेयकम् प्रस्तुतमस्ति। तत्पूर्वम उपवेशे भाषमाणाः सांसदाः राजेन्द्र बजगाई, नारायण प्रसाद आचार्य, माधव सापकोटा, नारायण प्रकाश साउद, रणेन्द्र बराइली, शेरबहादुर कुंवर च समसामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपरोपवेशः सेवा आषाढस्य उनत्रिंशे दिवसे रविवासरे दिवा एकवादने वस्ता। अद्य ज्ञानतादरम् गुरुम् प्रति श्रद्धा भक्ति प्रकटय्य गुरुपूर्णिमा दिवसः समायोज्यते। गुरुकुल शिक्षायाः प्रारब्धेऽस्मिन् दिवसे विद्यार्थिनः विद्या विनय शिष्टता प्रदर्शन पुरस्सरम् कर्तव्याकर्तव्ये प्रशिक्ष्य उज्ज्वल भविष्यस्य मार्गद्रष्टारम् गुरुम् यथोचितम् सम्मानयन्ति। गुरोः उपदेशं विना जनमानसे यथार्थ ज्ञानं न समुदेति इत्यतः गुरुः ब्रह्मा विष्णु महेश्वरवत् सम्मान्यो भवतीति शास्त्रेषु गुरोर्महत्वं वर्णितं वर्तते। गुरुपूर्णिमायाः अवसरे अद्य विशेषतः शिक्षण संस्थासु विविध कार्यक्रमाः आयोज्यन्ते। अद्यैव व्यासजयन्ती च ज्ञाननिधिं व्यासं प्रपूज्य समायोज्यमाना वर्तते। पूर्व पश्चिम राजमार्गान्तर्गतस्य नारायणघाट बुटवल मार्गखण्डस्य दाउन्ने स्थाने भूस्खलनेन मार्गे प्रवाहिते सति राजमार्गः पूर्णरूपेण अवरुद्धोऽस्ति। अविरलवृष्टेः कारणेन दाउन्ने निकटे वर्दघाट नगरपालिकायाः चतुर्थवडा क्षेत्रवर्तिनी खुर्सानी खोलिकायां दुरापन्नेन भूस्खलनेन मार्गस्य कतिसूचित भागेषु प्रवाहितेषु सत्सु ह्यः प्रातःकालात् राजमार्गोऽसौ पूर्णरूपेण अवरुद्धोऽस्तीति प्रहरिणा ज्ञापितं वर्तते। म्याग्दी जनपदस्य मालिका ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य लुप्सीपार स्थाने ह्य दिवा भूस्खलनेन एको जनः मृत एकश्चाहतोऽस्ति। लुप्सीपार स्थानस्य पञ्चत्रिंशद् वर्षीयस्य जगेन्द्र विकैत्यस्य भूस्खलने निपत्य मृत्युः सम्भूतोऽस्ति। तस्य पुत्र त्रयोदश वर्षीय सरोज विक च विलुप्तोऽस्तीति जनपद प्रहरी कार्यालयस्य प्रहरी निरीक्षकः सागर पौडेलः असूचयत्। प्रधानमन्त्रिणा त्रिभुवन विश्वविद्यालयस्य कुलपतेः केपी शर्मा ओलिनश्च समक्षम् विश्वविद्यालयस्य नवनियुक्तः उपकुलपतिः प्राध्यापकः डाक्टर दीपक अरियालः पदगोपनीयतयोः शपथम् गृहीतवान् वर्तते। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य आयोजिते कार्यक्रमे कुलपतेः समक्षम् उपकुलपतिः प्राध्यापकः डाक्टर अरियालः पदगोपनीयतयोः शपथम् अग्रहीत। तत्पूर्वम् ह्य एव प्रधानमन्त्री केपी शर्मा ओली त्रिभुवन विश्वविद्यालयस्य रिक्ते उपकुलपतिपदे परामृष्टेषु जनेषु मध्ये जनेषु प्राध्यापकम् अरियालम् नियुक्तवान् आसीत्। पोखरा विश्वविद्यालयस्य पञ्चविंशतितमायाः साधारण सभायाः उपवेशन आगामिनः आर्थिक वर्षस्य कृते एकाब्जस्य चतुष्पञ्चाशत् कोटीनां च रूप्यकाणाम् आयव्यय विवरणेन सहिता नीति कार्यक्रमाः पारितीकृताः सन्ति। प्रधानमन्त्रिणः विश्वविद्यालयस्य कुलपतिश्च केपी शर्मा ओलिनः अध्यक्षतायां ह्य बालुवाटार वर्तिनी प्रधानमन्त्री निवासे उपविष्टेन उपवेशेन विश्वविद्यालयस्य शिक्षक कर्मचारी सम्बद्ध पञ्चपञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षीया नियमावली, पञ्चपञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षीया आर्थिक नियमावली, सप्तपञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षीया सेवा आयोगेन पुनरावेदन समित्या च सम्बद्धा नियमावली च पारितीकृताः वर्तन्ते।